ఉదయం ఆకాశవాణి సంప్రతి వార్తాః శ్రూయంతాం ప్రవాచిక సాధనా శర్మ. राष्ट्रपतिने द्रौपदी मुर्मुः अवदत् यत् भारतं विश्वस्मिन् लोकतन्त्रस्य जीवितं उदाहरणं जातम्। शीघ्रमेव अर्थव्यवस्थायाः तृतीयः बृहत्तमः देशः भाव्यमानः अस्ति। विदेशमन्त्री डॉक्टर एस जयशंकरः अद्य आरभ्य मालदीवस्य त्रिदिवसीय आधिकारिक यात्रायां भविष्यति। सः अवदत् यत् अद्यावधि भारतीयानां नागरिकाणां 190 प्रसंगाः सन्ति। सर्वोच्च न्यायालयेन अद्य दिल्ल्याः पूर्व उपमुख्यमन्त्रिणे मनीष सिसोदिया इत्यस्मै दिल्ली उत्पाद शुल्क नीति सम्बद्ध प्रकरणे तं विरुद्धं ख्यापितं निरस्तीकृत्य मुक्तिः प्रदत्ता। अपि च क्रीडायां पेरिस ओलंपिक इति क्रीडा कुम्भे अद्य भारतीयः मल्लयोद्धा अमन सेहरावतः पुरुषाणां 57 किलोग्राम वर्गस्य मल्लयुद्ध क्रीडायाम् इत्यत्र क्रीडिष्यति। इदानीं वार्ताः विस्तरेण। राष्ट्रपतिः द्रौपदी मुर्मुः अवदत् यत् भारतं विश्वस्मिन् लोकतन्त्रस्य जीवितं उदाहरणं जातम्। शीघ्रमेव अर्थव्यवस्थायाः तृतीयः बृहत्तमः देशः भाव्यमानः अस्ति। अद्य ऑकलैंड नगरे आयोजिते सामुदायिक स्वागत समारोहे राष्ट्रपतिः द्रौपदी मुर्मुः भारतीय प्रवासिनः सम्बोधितवती। अस्मिन् अवसरे राष्ट्रपतिः अवदत् यत् भारतं विश्वस्मिन् सजीव लोकतन्त्रस्य उदाहरणं जातम्। शीघ्रमेव तृतीया बृहत्तमा अर्थव्यवस्था भवति अत्र। स्वागत समारोहे भारत सर्वकारस्य राज्यमंत्री जॉर्ज कुरियनः, लोकसभा सांसदः जुगल किशोर शर्मा, सौमित्र खानः, उच्चायुक्ता नीता भूषणः, बहवः भारतीयाः प्रवासिनश्च उपस्थिताः आसन् अस्मिन् अवसरे। द्रौपदी मुर्मुः प्रवासिनः भारतीयान् स्वीय सम्बोधने उक्तवती यत् न्यूजीलैंड देशस्य समीपे भारतस्य विकास दिशि विशेषतया शिक्षायाः क्षेत्रे योगदानस्य विशेषज्ञताः अनुभवाश्च वर्तन्ते। सा अस्मिन् विषये हर्षं प्रकटितवती यत् न्यूजीलैंड देशे वसन्तः भारतीयाः दीपावली, ओणम्, होली, पोंगल पर्वाणि सहर्षं सोल्लासं च आमानयन्ति। विदेश मंत्री डॉक्टर एस जयशंकरः अद्य अवदत् यत् अद्यावधि भारतीयानां नागरिकाणां 190 प्रसंगाः सन्ति ये रूस सेनायां नियुक्ताः सन्ति। लोकसभायां प्रश्नोत्तरकाले पूरकानां प्रश्नानां उत्तरं दत्त्वा डॉक्टर जयशंकरः प्रोक्तवान् यत् तेषु 8 दुर्भाग्यरूपेण मृताः, 14 जनेभ्यश्च अवकाशः प्रदत्तः। भारतम् एतत् विषयम् अतीव गंभीरतया चिन्तयति यत् विदेशमंत्री अवधानं दत्तवान्। असौ अवोचत् यत् अनेन रूसदेशीयेन विदेशमंत्रिणा सह अनेकवारं अयं विषयः उत्थापितः। डॉक्टर जयशंकरः अवदत् यत् समस्या एषा अस्ति यत् एते भारतीयाः नागरिकाः रूससेनायाः सेवायाम् अनुबन्धनं स्वीकृतवन्तः इति रूसदेशीयाः अधिकारिणः मन्यन्ते। कर्तृकार्यस्य विषये मंत्री सूचितवान् यत् सीबीआई केन्द्रीय अन्वेषण प्रभागः इत्यनेन 19 जनानां संस्थानां च विरुद्धं आपराधिक प्रकरणं पञ्जीकृतम् अस्ति। लोकसभायाः राज्यसभायाश्च अनुसूचित जाति अनुसूचित जनजाति इति वर्गाणां भाजपा दलीयाः सांसदाः अद्य संसद भवने प्रधानमन्त्रिणा नरेन्द्र मोदिना सह मिलितवन्तः। अनुसूचित जाति अनुसूचित जनजाति इत्येतयोः कृते नवोन्नत वर्ग विषयं सर्वोच्च न्यायालयस्य निरीक्षणस्य विषये सांसदाः संयुक्त रूपेण स्मारकं प्रेषितवन्तः। सभायाः अनन्तरं वार्ताहरैः सह वार्तालापं कुर्वन् भाजपा पक्षस्य सांसदः फूला सिंहः अवदत् यत् अयं निर्णयः न प्रवर्तनीयः इति ते आग्रहम् अकुर्वन्। सः अवदत् यत् प्रधानमन्त्री तान् आश्वासितवान् यत् एतत् केवलं सर्वोच्च न्यायालयस्य निरीक्षणम् एव अस्ति। सर्वोच्च न्यायालयेन अद्य दिल्ल्याः पूर्व उपमुख्यमन्त्रिणे मनीष सिसोदिया इत्यस्मै दिल्ली उत्पाद शुल्क नीति सम्बद्ध प्रकरणे तं विरुद्धं ख्यापितं निरस्तीकृत्य मुक्तिः प्रदत्ता। न्यायाधीशयोः बी आर गवई के वी विश्वनाथन इत्यनयोः एकेन पीठेन केन्द्रीयान्वेषण विभाग प्रवर्तन निदेशालययोः ख्यापित प्रसंगेषु सिसोदिया द्वारा याचित याचिकायै अनुमतिः प्रदत्ता। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रव्यापिनः प्रत्येकं गृहं त्रिरङ्गः हर घर तिरंगा इति अभियानस्य अंशे भारतीय जनता पार्टी इति दलम् अगस्त मासस्य एकादश दिनांकतः त्रयोदश दिनांकं यावत् प्रत्येकं विधानसभा निर्वाचन क्षेत्रे तिरंग यात्रा कार्यक्रमस्य आयोजनं करिष्यति। भाजपा दलस्य राष्ट्रियः महासचिवः तरुण चुगः एकस्मिन् वक्तव्ये उक्तवान् यत् अगस्त मासस्य द्वादशात् चतुर्दश दिनांकं यावत् सर्वेभ्यः स्वतन्त्रता सेनानिभ्यः एवं देशस्य सर्वेषु युद्ध स्मारकेषु पुष्पचक्राणि पुष्पाञ्जलयश्च अर्पिष्यन्ते। केन्द्र प्रशासनेन भारत बांग्लादेश सीम्नि समसामयिकीं परिस्थितिं निरीक्षितुम् एका समितिः निर्मिता। एषा समितिः बांग्लादेशे समकक्षिभिः अधिकारिभिः सह संवादं साधयिष्यति। पश्चिमी एशियायां गंभीर रूपेण संघर्षः प्रवर्तते, अतः इजराइल देशः उच्च संचेतनां प्रतिवर्तते। प्रधानमन्त्री बेंजामिन नेतन्याहुः विश्वासं प्रकटितवान् यत् देशः आत्मरक्षाया सह प्रत्युत्तरे आक्रमणाय सन्नद्धोऽस्ति। पेरिस ओलंपिक इति क्रीडाकुम्भे अद्य भारतीयः मल्लयोद्धा अमन सेहरावतः पुरुषाणां 75 किलोग्राम वर्गस्य मल्लयुद्ध क्रीडायां चैपडी मार्स एरेना इत्यत्र क्रीडिष्यति। प्रधानमन्त्री नरेन्द्र मोदी कुंतक क्षेपकाय नीरज चोपड़ा अमुष्मै वर्धापनानि प्रदत्तवान्। असौ पेरिस ओलंपिक चतुर्विंशत्युत्तर द्विसहस्र स्पर्धायां रजत पदकं विजितवान्। भारत ऋतु विभागेन आगामिनः 7 दिनानि यावत् देशस्य विभिन्नेषु भागेषु अतिवृष्टेः संभावना अभिव्यक्ता। विभागानुसारेण सप्ताहपर्यन्तं पूर्वोत्तरीय पश्चिमी उपहिमालयस्य क्षेत्रेषु विद्युत् प्रकाशनेन ध्वनिना च सह महती वृष्टिः भविष्यति। विभागेन इदम् अपि पूर्वानुमानितं यत् देशस्य पूर्वीय भागाः अपि आगामिषु त्रिषु चतुर्षु च दिवसेषु तद्वद् एव महती वृष्टेः साम्मुख्यं करिष्यति। अन्ते पुनरेकवारं मुख्याः वार्ताः। राष्ट्रपति द्रौपदी मुर्मुः अवदत् भारतं विश्वस्मिन् लोकतन्त्रस्य जीवितम् उदाहरणं जातम् इति वार्ताः।